పాణినయే నమః. వ్యాఖ్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం నత్వా సరస్వతీం దేవీం శుద్ధాం గుణ్యాం కరోమ్యహం. పాణినీయ ప్రవేశాయ లఘు సిద్ధాంత కౌముదీం గురువేవ గతిః గురుమేవ భజే గురునైవ సహాస్మి నమో గురవే. న గురోః పరమం శిశురస్మి గురోః మతిరస్తి గురో మమ పాహి గురో. ఓం నమః పాణిని కాత్యాయన పతంజలిభ్యః శబ్ద విద్యా సంప్రదాయ ప్రవర్తకేభ్యః నమో మునిభ్యః నమో గురుభ్యః. పూర్వస్యాం కక్షాయాం అస్మాభిః సర్వత్ర విభాషా గోహో ఇంద్రేచ ఇత్యాది సూత్రాణాం అధ్యయనం కృతం. ఇదానీం అగ్రిమసూత్రం విద్యతే దూరాద్ధూతేచ ఇతి. దూరాద్ధూతేచ దూరాత్ హూతే హూతే ఇతి నిత్తం హూతే దూరాత్ హూతే చ ఇతి పదత్రయం విద్యతే. దూరాత్ ఇత్యత్ర పంచమీ ఏకవచనం, హూతే ఇత్యత్ర సప్తమీ ఏకవచనం, చ ఇత్యత్ర అవ్యయం. ఇదానీం లఘుకౌముది ప్రకరణే ఇదానీం స్వరసంధి ఇత్యుక్తే అత్సంధి ప్రకరణే ఏవ ప్రకృతిభావ ప్రకరణమపి ఆగచ్చతి. ప్రకృతిభావ ప్రకరణం మీనాక్షి భగిని శ్రూయతేవా? ప్రకృతిభావ ప్రకరణమపి లఘుకౌముద్యాం అత్సంధి ప్రకరణే ఏవ నిహితమస్తి. అత్ర దూరాద్ధూతే చ ఇతి ప్రకృతిభావ విషయకం సూత్రం. ఇదానీం దూరాత్ హూతే ఇతి పదస్య అర్థః కః ఇతి ద్రష్టవ్యం. తత్ర హ్వేంగ్ స్పర్ధాయాం శబ్దే చ ఇతి ఏకః ధాతుః విద్యతే. హ్వే స్పర్ధాయాం శబ్దే చ తత్ర భ్వాదిగణే ఉభయపది ధాతుః ఏషః. ఇదానీం హ్వే ఇత్యస్య యది భావే తప్రత్యయః క్రియతే హూతశబ్దః ఆగచ్చతి. హూతే హూతశబ్దస్య సప్తమీ విభక్తిః హూతే ఇతి భవతి. హూతే ఇత్యస్య అర్థః కః ఇత్యుక్తే తత్ర హిందీభాషాయాం బులాన ఇతి ఆగచ్చతి కిల తథా. ఏవం హూతే నామ సంబోధనం, ఆహ్వానం, అన్యస్య ఆహ్వానం ఇత్యర్థః. ఇదానీం సూత్రార్థః ఏవం విద్యతే. దూరాత్ యదా సంబోధనం క్రియతే తదా వాక్యస్య ఇత్యుక్తే సంబోధన వాక్యస్య తేహ తే నామ అచోంత్యాదితి అస్మాభిః అధీతం. అచోంత్యాదితి శకన్వాదిషు పరరూపం వాచ్యం ఇత్యాది సూత్రేషు టి ఇతి సంజ్ఞా అస్మాభిః తత్ర పూర్వమేవ అధీతం. తేహ వాక్యస్య తేహ ఇత్యుక్తే టేర్ టి అచోంత్యాదితి ఇత్యుక్తే అంత్యాత్ పూర్వ స్వరః పూర్వవర్ణః టి సంజ్ఞః స్యాత్. తత్ర వాక్యస్య తేహ ప్లుతః వా స్యాత్ ఇతి సూత్రార్థః. ఇదానీం అస్య అనేన కిం క్రియతే ఇత్యుక్తే ప్లుతః విధీయతే. అనేన సూత్రేణ కిం విధీయతే? ప్లుతః విధీయతే. విధి సూత్రం అస్తి ఏతత్ సూత్రం. వాక్యస్య తేహ ప్లుతః ఉదాత్తః ఇతి సూత్రస్య అనువర్తిః అస్తి. ఇదానీం ఏతత్ సూత్రం షష్టాధ్యాయే నాస్తి, అష్టమాధ్యాయస్య ద్వితీయ పాదే అస్తి ఏతత్ సూత్రం. అష్టమాధ్యాయస్య ద్వితీయ పాదే చ चतुरशीतितमं सूत्रम् तत्र पश्यन्तु ततः उपरि वाक्यस्य टेः प्लुतः उदात्तः इति अष्टाध्यायम् अस्ति. वाक्यस्य टेः प्लुतः उदात्तः इति सम्पूर्णस्य अनुवृत्तिः भवति. इदानीं दूराद्भूते च, दूरात् यदा सम्बोधनं क्रियते किं भवति, सम्बोधनवाक्यस्य टेः अचोन्त्यादि टि, टि नाम टेः, नाम टेः इत्यस्य षष्ठीभक्तिः, प्लुतः, प्लुतः भवति, उदात्तः च भवति इति अनेन सूत्रेण प्लुतः विधीयते, उदात्तस्वरः च विधीयते. अत्र दूरादित्यस्य अभिप्रायः कः? दूरादिति पदस्य अभिप्रायः यस्मात् स्थानात् उच्यमानं वाक्यं सम्बोध्यमानः जनः साधारणप्रयत्नेन न श्रोतुं शक्नुयात् तदा एव दूरादिति उच्यते. यदि सः विशेषप्रयत्नं करोति, ओ किञ्चित् ध्वनिः श्रूयते, किं श्रूयते इति अहम् अस्तु तत् शृणोमि इति यदि सः हस्तं स्वीकृत्य अञ्जलिरूपेण पुटरूपेण कृत्वा कर्णस्य समीपे हस्तं निधाय सः श्रोतुं प्रयत्नं करोति चेत् तदा श्रूयते. एतादृशश्रवणं दूरात् इति उच्यते. दूरात् दूरात् इत्यस्य इदानीं मेजर् किम् अस्ति इति तदेव. दूरादिति पदस्य अभिप्रायः अत्र यस्मात् स्थानात् उच्यमानं वाक्यं साधारणप्रयत्नेन श्रोतुं न शक्नुयात् सम्बोध्यमानः जन, सम्बोध्यमानस्य जनस्य साधारणप्रयत्नेन श्रोतुं न शक्नुयात् किन्तु विशेषप्रयत्नेनैव श्रोतुं शक्नुयात् स एव दूरादिति उच्यते. इदानीं सूत्रस्य भावार्थः किम् अस्ति इत्युक्ते दूरात् सम्बोधने यदा सम्बोधनं क्रियते तदा वाक्यस्य टेः प्लुतः भवति. प्लुतः वा भवति, वा इति विकल्पः अस्ति. तत्र वाक्यस्य टेः प्लुतः उदात्तः इति अधिकारः, सम्पूर्णप्लुताधिकारः तत्र विकल्पः अस्ति. तदस्माभिः विशेषरीत्या स्मर्तव्यम्. एवम् इदानीम् आगच्छ कृष्ण इति अस्ति. इदानीम् आगच्छ कृष्ण इत्येतस्य वाक्यस्य प्रयोगः, एकः कृष्णः अस्ति तम् आह्वातुम् अस्माभिः प्रयत्नः क्रियते, सः दूरे तिष्ठति, अतः आगच्छ कृष्ण इति उच्चस्वरेण वदामः. यदा कृष्ण इति सम्बोध्यमानपदम् अन्ते यदा उच्यते तदा नकार आगच्छ कृष्ण इत्यत्र कृष्ण इत्यत्र नकारोत्तर अकारः टिसंज्ञकः प्लुतसंज्ञको भवति. इदानीं प्लुतसंज्ञकः भवति चेत् नकारोत्तर अकारस्य अनन्तरं तत्र प्लुतस्य प्लुतः स्वराणां प्लुतः तु स्वराणामेव भवति. अस्माभिः ह्रस्वस्वरः, दीर्घस्वरः, प्लुतस्वरः इति अधीतम्. प्लुतः नाम एकमात्रो भवेत् ह्रस्वः, द्विमात्रो दीर्घः उच्यते, त्रिमात्रस्तु प्लुतो ज्ञेयः. एवम् आगच्छ कृष्ण इति वक्तव्यम्. अनेन सूत्रेण तदेव क्रियते, प्लुतः विधीयते. तत्र कृष्ण इत्यत्र नकारोत्तर अकारः यः टिवर्णः अस्ति तस्य प्लुतः विधीयते. इदानीम् अत्र अंशद्वयम् अस्माभिः स्मर्तव्यम्. दूरे सम्बोधनं भवेत्, अपि च सम्बोध्यमानः जनः अन्ते भवेत्. इदानीं कृष्ण आगच्छ इति वदामश्चेत् तत्र कृतसंज्ञकः न भवति. यः सम्बोध्यमानः जनः अस्ति सः अन्ते एव भवेत्, तस्य सम्बोध्यमानः जनः वाक्यस्य अन्ते एव भवेत्. अत्र सम्बोध्यमानं पदं कृष्ण इति वाक्यान्ते अस्ति, न तु मध्ये अस्ति. अतः यदि वाक्यान्ते अस्ति तर्हि आगच्छ कृष्ण इत्यत्र नकारोत्तर अकारः प्लुतसंज्ञको भवति. एवं यदि कृष्ण आगच्छ इति अस्ति तत्र आगच्छ इत्यत्र चकारोत्तर आकारस्य प्लुतसंज्ञा न भवति यतो हि आगच्छ इति संबोध्यमानः जनः नास्ति अतः तत्र प्लुतसंज्ञा न भवति इदानीं टिसंज्ञा तत्र प्लुतसंज्ञा प्लुतविधानार्थं वाक्यप्रयोगः दूरात् भवेत् सम्बोध्यमानः जनः वाक्यस्य अन्ते भवेत् इति अंशद्वयं स्मर्तव्यम् इदानीं तदनन्तरम् इदानीं वाक्यद्वयं पश्यामः ये हि देवदत्ता प्लुतपक्षे ये हि देवदत्ता इति भवति सप्तून्पिब देवदत्ता इत्यपि भवति प्लुताभावपक्षे तत्र प्लुतस्वरः न भवति ये हि देवदत्ता सप्तून्पिब देवदत्ता इति भवति तत्र मया तत्र दोषकृतः तत्र ये हि देवदत्ता इति प्लुताभावपक्षेऽपि प्लुतसंज्ञा तत्र त्रि मार्क् स्थापितं तद् न भवेत् तत्र कट् पेस्ट् यदा कृतं तद् डिलीट् कर्तुं विस्मृतवानहम् इदानीं प्लुतपक्षे ये हि देवदत्ता इति प्लुत भवति सक्तून्पिब देवदत्ता इति भवति प्लुताभावपक्षे ये हि देवदत्ता सक्तून्पिब देवदत्ता इति भवति इदानीं प्रश्नः उत्पद्यते किमर्थम् इदानीं प्लुतसंज्ञा विषयकम् अत्सन्धिप्रकरणे किमर्थं तत्र इदानीं प्लुतविषयकं तदपि सम्बोधने प्लुतविषयकं वाक्यस्य एतत् सर्वं किमर्थं कथम् आगतम् अत्र इति प्रश्नः समुद्भवति तदा अग्रिमसूत्रम् अस्माभिः द्रष्टव्यं प्लुतप्रगृह्य अचिनित्यम् इति प्लुतप्रगृह्य अचिनित्यम् इति अत्र अनेन सूत्रेण प्रकृतिभावः विधीयते इदानीम् अत्र किं क्रियते प्लुतप्रगृह्य इति एकं पदम् अचि इति एकं पदं नित्यमिति एकं पदं प्लुतप्रगृह्य इत्यत्र प्रगृह्याः प्रथमाभक्ति बहुवचनमस्ति अचि इति सप्तमी एकवचनमस्ति नित्यम् इति द्वितीयाभक्ति अस्ति एते नाम प्लुतप्रगृह्याः अचि प्रकृत्याः स्युः यदि अचि परे प्लुताः प्रगृह्याः प्रकृतिभावं स्वीकुर्वन्ति इत्यर्थः इदानीं पूर्वस्मिन् सूत्रे अस्माभिः आगच्छ कृष्ण इति दृष्टम् आगच्छ कृष्ण अत्र गौश्चरति इति वाक्ये इत्यस्मिन् वाक्ये इदानीं किम् अचि परे इदानीम् आगच्छ कृष्ण अत्र इत्यत्र अकारः अच्वर्णः अस्ति आगच्छ कृष्ण इत्यत्र इदानीं सूत्रार्थः एवमस्ति अचि परे यदि प्लुतः तत् प्रकृतिभावं स्वीकरोति इदानीं प्रगृह्यविषये वयम् अनन्तरम् आगच्छामः इदानीं प्लुतविषये पश्यामः इदानीम् आगच्छ कृष्ण इत्यत्र नकारोत्तर आकारस्य प्लुतः केन सूत्रेण विहितः दूराद्भूते च इति सूत्रेण तत्र प्लुतः विहितः प्लुतस्य प्रयोजनं किं प्लुतविहितस्य प्रयोजनं किम् इत्युक्ते आगच्छ कृष्ण अत्र गौश्चरति इत्यस्मिन् वाक्ये कृष्ण अत्र इत्यत्र कृष्णात्र इति सवर्णदीर्घसन्धिः वार्यते सवर्णदीर्घसन्धिसहितं रूपमपि अस्ति सवर्णदीर्घसन्धिरहितरूपमपि अस्ति यदा प्लुतः भवति तदा सवर्णदीर्घसन्धिः न भवति प्रकृतिभावः इत्युक्ते प्रकृतिवत् तिष्ठति आगच्छ कृष्ण अत्र गौश्चरति इति सन्धिरहितवाक्यम् एव वक्तव्यम् यदा प्लुतः उच्यते चेत् यदि प्लुतः न उच्चारणं क्रियते आगच्छ कृष्ण तदा आगच्छ कृष्ण अत्र गौश्चरति कृष्णात्र इति सवर्णदीर्घसन्धिः कर्तुं शक्यते एतदेव प्लुतविधानस्य प्रयोजनम् इदानीम् अस्मिन् सूत्रे प्लुतप्रगृह्य आचिनित्यम् इत्यत्र तत्र एते इत्युक्ते प्लुताः प्रगृह्याः अचिपरे नित्यं प्रकृतिभावं स्वीकुर्वन्ति, प्रकृतिभावम् आप्नुवन्ति, प्रकृतिभावरूपेण तिष्ठन्ति इति इदं सूत्रं वदति। अत्र प्रकृतिभावः नाम सन्धिनिमित्ते सत्यपि सन्धिकार्य अभावः, स एव प्रकृतिभावः इति उच्यते। सन्धिनिमित्ते सत्यपि सन्धिकार्य अभावः एव प्रकृतिभावः। अत्र प्लुताः प्रगृह्याश्च प्लुतप्रगृह्याः इति इतरेतरद्वन्द्वसमासः, अत्र अनुवृत्तिः अस्ति। सूत्रार्थः किम्? अचिपरे प्लुतप्रगृह्याः प्रकृत्याः भवन्ति। प्लुतः नाम ये हि कृष्णात्र गौश्चरति इत्यत्र प्लुतः आगच्छ, आगच्छ कृष्णात्र गौश्चरति इत्यादि वाक्येषु कृष्ण इत्यत्र प्लुतः, दूराधूते च इति सूत्रेण प्लुतः विहितः। इदानीं प्रगृह्यं नाम किम्? प्रगृह्यं नाम अग्रिमसूत्रे उच्यते, प्रगृह्यम् इति काचन संज्ञा। प्रगृह्यसंज्ञकस्यापि प्रकृतिभावः भवति। यदि प्रगृह्यसंज्ञकस्य अचिपरे प्रकृतिभावः भवति, प्लुतसंज्ञकस्य अचिपरे प्रकृतिभावः भवति। इदानीं प्रगृह्यसंज्ञा प्रज्ञः नाम किम् इति अग्रिमसूत्रे वयं पश्यामः। इदानीं प्लुतप्रगृह्याचिनित्यम् इत्यस्य उदाहरणानि पश्यामः। प्रकृतिभावपक्षे किं भवति, प्रकृतिभावाभावे किं भवति? आगच्छ कृष्ण अत्र गौश्चरति इत्यत्र सत्र सवर्णदीर्घसन्धिः न भवति प्रकृतिभावपक्षे। यदा प्रकृतिभावः कथमागतः, कृष्ण इत्यत्र नकारोत्तर अकारस्य प्लुतः दूराधूते च इति विहितः, विहितप्लुतस्य प्लुतप्रगृह्याचिनित्यम् इति नित्यं प्रकृतिभावः भवति। अनेन सूत्रेण प्रकृतिभावः भवति। प्रकृतिभावाभावे प्रकृतिभाव अभावे आगच्छ कृष्णात्र गौश्चरति इति सन्धिः भवति। आगच्छ हरे अत्र क्रीडेम, वयं क्रीडेम इति इत्यत्र तत्रापि हरे अत्र इत्यत्र पूर्वरूपसन्धिः अस्ति, निमित्तम् अस्ति, पूर्वरूपसन्धेः प्रवृत्तिः तत्र अस्ति। परन्तु हरे इत्यत्र एकारस्य प्लुतविधानात् दूराधूते च इति, यदि दूरे वयं सम्बोधनं कुर्मः तर्हि सम्बोधनमपि अस्ति, अन्ते अपि अस्ति हरिशब्दः, अतः आगच्छ हरे इत्यत्र एकारस्य प्लुतसंज्ञाविधानेन अत्र प्लुतप्रगृह्य आचिनित्यम् इति सूत्रेण किम् अभवत्? प्रकृतिभावः अभवत्। प्रकृतिभावाभावे आगच्छ हरे अत्र क्रीडेम इति पूर्वरूपसन्धिरूपं पूर्वरूपसन्धिसहितवाक्यमपि तत्र पश्यामः। आगच्छ राम अत्रास्ति सीता इत्यत्रापि एवमेव गतिः, आगच्छ रामात्रास्ति सीता इति प्रकृतिभावाभावे रूपं भवति। सक्तोन्पिब भीम अहम् आगच्छामि इति वाक्येऽपि एषा एव गतिः। एवं प्रकृतिभावस्य प्रकृतिभावपक्षे प्रकृतिभावाभावपक्षे कथं भवति इति अस्माभिः अधीतम्। इदानीं तदेव पुनः अस्मिन् स्लैड् मध्ये अस्ति। इदानीं प्रगृह्यं नाम काचन संज्ञा। प्रगृह्यसंज्ञा कथं भवति, का प्रगृह्यसंज्ञा इति प्रश्ने कृते ईदूदे द्विवचनं प्रगृह्यम्, ईदूदे द्विवचनं प्रगृह्यम्। अत्र तपरकरणं विद्यते, ईत् ऊत् येत् द्विवच ईदूदेत् इति अस्ति। ईच्च ऊच्च येच्च ईदूदेत्, ईदूदेत् इति पदं द्विवचनस्य विशेषणमस्ति। एवम् ईदूदे द्विवचनं प्रगृह्यसंज्ञः भवति। ईदूदेदन्तं द्विवचनम् इति आगच्छति, ईदन्तम् ऊदन्तम् एदन्तम् ईदूदेदन्तं द्विवचनम् तदृश्य संयम स्यात् इदानीं द्विवचनम् इति अत्र उक्तम् एतस्य ईकारः नाम दीर्घ ईकारः तपरकरणं कृतम् अतः दीर्घ ईकारः स्वीक्रियते ऊकारः नाम दीर्घ ऊकारः एकारः नाम एकारः स्वीक्रियते इदानीं सूत्रस्य तात्पर्यं किम् अस्ति इत्युक्ते ईकारान्तम् ऊकारान्तम् एकारान्तम् च द्विवचने यदि अस्ति तत्पदं प्रगृह्यसंज्ञकं भवति इदानीम् उदाहरणं पश्यामः हरि इत्यत्र हरिः हरि हरयः इति शब्दः विद्यते हरि इति ईकारान्तं पदं विद्यते द्विवचनमपि विद्यते इदानीं द्विवचनमपि विद्यते ईकारान्तमपि विद्यते चेत् तस्य नूतननामकरणम् अस्ति प्रगृह्यम् इति प्रगृह्यनामकरणं किमर्थं क्रियते इत्युक्ते तद् अग्रे उच्यते ईदूदे द्विवचनं प्रगृह्यमिति प्रगृह्यनाम क्रियते इदानीं विष्णु इति पदं स्वीकुर्मः विष्णुः विष्णु विष्णवः विष्णुः विष्णु विष्णवः इत्यत्र ऊकारान्तः अस्ति द्विवचनमपि अस्ति विष्णु इति पदम् इदानीं विष्णु इत्यस्य ऊकारान्तस्य शब्दस्य द्विवचनत्वात् अत्र ऊकारान्तं द्विवचनं यदि अस्ति चेत् तस्य नूतननाम अस्ति नूतननाम किं प्रगृह्यम् इति तस्य नामकरणं क्रियते अत्र गङ्गे इति अपि अस्ति गङ्गा गङ्गा गङ्गे गङ्गाः एकारान्तं द्विवचनमस्ति अत्रापि गङ्गे इत्यत्र प्रगृह्यसंज्ञकम् अस्ति इदानीम् इदानीं प्रगृह्यसंज्ञा आगता हरि इत्यस्य ईकारस्य हरि इति पदे ईकारस्य प्रगृह्यसंज्ञा विष्णु इति पदे ऊकारस्य प्रगृह्यसंज्ञा गङ्गे इति पदे गङ्गे इत्यत्र एकारस्य प्रगृह्यसंज्ञा इदानीं प्रगृह्यसंज्ञा आगतम् प्रगृह्यसंज्ञायाः प्रयोजनं किम् प्रगृह्यसंज्ञायाः प्रयोजनं तु पूर्वमुक्तं प्लुतप्रगृह्य अचिनित्यम् इत्येव प्रयोजनम् इत्युक्ते प्लुताः प्रगृह्याः अचिपरे किं भवन्ति प्रकृतिभावं स्वीकुर्वन्ति एवं हरि एतौ इत्यत्र इदानीं हरि एतौ इत्यत्र ईकारः एकारः अस्ति यण्सन्धेः प्रसक्तिः अस्ति हर्येतौ इति यण्सन्धेः प्रसक्तिः अस्ति विष्णु इमौ इत्यत्र ऊकारस्य ईकारस्य यण्सन्धेः प्रसक्तिः गङ्गे अमू इत्यत्रापि पूर्वरूपसन्धेः प्रसक्तिः अस्ति इदानीम् अनेन सूत्रेण प्रगृह्यसंज्ञा ईकारस्य ऊकारस्य एकारस्य आगतम् अतः किम् अभवत् प्रगृह्यसंज्ञा अभवत् अत्र प्रगृह्यसंज्ञया प्लुतप्रगृह्याचिनित्यम् इत्यनेन प्रकृतिभावः अभवत् अतः हरि एतौ विष्णु इमौ गङ्गे अमु इत्यत्र प्रकृतिभावत्वात् सन्धिः न भवति अत्र स्मर्तव्यम् ईकारान्तं द्विवचनम् ऊकारान्तं द्विवचनम् एकारान्तं द्विवचनं भवेत् तदा एव ईदूदे द्विवचनं प्रगृह्यम् इति सूत्रस्य प्रवृत्तिः ईदूदे द्विवचनं प्रगृह्यम् इति प्रथमाध्याये विद्यते एतत् सूत्रं प्रथमाध्याये संज्ञासूत्रमेतत् एतत् न विधिसूत्रम् अनेन किं क्रियते प्रगृह्यसंज्ञा विधीयते प्रगृह्यसंज्ञायाः प्रयोजनं किम् प्रगृह्यसंज्ञाविधानान्तरं कृतप्रगृह्या अचिनित्यम् इत्यनेन प्रकृतिभावः आगच्छति प्रकृतिभावस्य प्रयोजनं किम् निमित्ते सति सत्यपि सन्धिः तत्र न भवति स एव प्रकृतिभावस्य प्रयोजनम् एवं प्रकृतिभावकरणार्थम् अत्र प्रगृह्य इति काचन संज्ञा विधीयते अनन्तरं यत्र यत्र प्लुताः सम्भवन्ति यत्र यत्र प्रगृह्य संज्ञा अस्ति तत्र तत्र प्लुतप्रगृह्याच नित्यम् इत्यनेन प्रकृतिभावः आगच्छति। एतदेव ईदूदे द्विवचनं प्रगृह्यम् इति सूत्रः वदति। अवगतं वा? अति समीचीनम्। इदानीम् अग्रिमसूत्रं किम् अस्ति इत्युक्ते अदसो मात् इति सूत्रम् अग्रिमसूत्रम् अस्ति। अदसो मात् इति सूत्रे तत्र पदद्वयमेव अस्ति, तथापि सूत्रार्थः दीर्घः अस्ति। अदसः षष्ठी विभक्ति एकवचनमस्ति, मात् इत्यत्र पञ्चविभक्ति एकवचनमस्ति। इदानीम् एतदपि संज्ञासूत्रमेव न तु विधिसूत्रम्। अनेन सूत्रेणापि प्रगृह्यसंज्ञा विधीयते। अनेन सूत्रेण केषां प्रगृह्यसंज्ञा विधीयते इत्युक्ते अदस् इति तत्र सर्वनामशब्दः अस्ति। अदस् असौ अमो अमि इति शब्दः अस्ति। मात् मात् इत्यत्र मकारान्तः, मात् इत्युक्ते मकारात् परौ इति अर्थः आगच्छति। इदानीं सूत्रार्थः किम् अस्ति? अस्मात् परौ, अस्मात् नाम अदसः इति अस्मात् परौ ईदूतौ। ईदूतौ इति कथम् आगतम्? ईदूदे द्विवचनं प्रगृह्यम् इति प्रथमाध्याये एकादशतमं सूत्रमस्ति। ईदूत् प्रगृह्यम् इति तत्र अनुवृत्तिः अस्ति। अस्मात् परौ ईदूतौ प्रगृह्यौ स्तः। प्रगृह्यौ स्तः, प्रगृह्यं नाम काचन संज्ञा। इदानीं प्रगृह्यसंज्ञा कस्य कस्य इति वदन् सूत्रकारः किं वदति? प्रथमं किम् उक्तवान्? ईदूदे द्विवचनं प्रगृह्यम्। ईकारान्तम् ऊकारान्तम् एकारान्तम् यदि द्विवचनम् अस्ति तदा तस्य प्रगृह्य इति संज्ञा भवति। अस्तु, अनन्तरम् अदसो मात्। अदसः अदशब्दस्यापि किं भवति? ईदू यदि ईदूतौ अस्ति प्रगृह्यौ स्तः। अदशब्दस्य ईदूतौ कुत्र अस्ति इति अस्माभिः द्रष्टव्यम्। इदानीम् अदशब्दरूपं पश्यामः। पुल्लिङ्गे किं किम् अस्ति? असौ अमु अमि अमुम् अमु अमून् इति अस्ति। असौ अमु अमि इत्यत्र अमू इत्यत्र ऊकारान्तः अस्ति। असौ अमु अमि इत्यत्र ईकारान्तः अस्ति। इदानीम् अस्य सूत्रस्य अर्थं पुनः पश्यामः। अस्मात् परौ ईदूतौ, अस्मात् नाम अदशब्दात् परौ, अदस् इति शब्दस्य अवयवात् परौ ईदूतौ। ईकारः ऊकारः यदि अस्ति चेत् तस्य प्रगृह्यसंज्ञा भवति। इदानीं तत्र अदस् इति पदं सर्वनाम अस्ति। पुल्लिङ्गस्य इदानीं स्त्रीलिङ्गनपुंसकलिङ्गयोः अपि द्विवचने अमु इति पदं प्राप्यते। इदानीं पश्यामः, स्त्रीलिङ्गे असौ अमु अमूः, अमुम् अमु अमूः इति अपि अस्ति स्त्रीलिङ्गे। नपुंसकलिङ्गे अधः अमु अमूनि, अधः अमु अमूनि इति द्विवचने नपुंसकलिङ्गे अपि अस्ति। इदानीं स्त्रीलिङ्गे नपुंसकलिङ्गे ईदूदे द्विवचनं प्रगृह्यम् इत्यनेनैव प्रगृह्यसंज्ञा आगच्छति। पुल्लिंगे प्रकृतसूत्रेण आदर्श प्रकृतसूत्रेण पुल्लिंगे विवचने एव अस्य प्रवृत्ति अमु अमी इति असौ अमु अमी इत्यत्र अमु इति पदम अमी इति पदम अस्ति अतः अत्र अदसः मात् अदस शब्दस्य मकारात् परस्य ईकारस्य ऊकारस्य प्रगृह्य संज्ञा भवति। इदानीं अदसः मात् इत्यत्र अमु अमि इति रूपद्वयस्य पुल्लिङ्गे ईकारस्य ऊकारस्य प्रगृह्यसंज्ञा भवति। अत्र विशेषः वक्तव्यः अत्र किं भवति इत्युक्ते पुल्लिङ्ग अदस् शब्दस्य प्रथमा बहुवचने असौ अदस् जस् इति भवति। अदस् जस् इत्यत्र जस् जशः शी आदेशः भवति, तदनन्तरं गुणः भूत्वा अदे इति भवति। एतै बहुवचने इति एकं सूत्रमस्ति, तत् सूत्रम् अष्टमाध्यायस्य द्वितीयपादे अस्ति। एवं एतैः बहुवचने इति सूत्रे एकारस्य ईकारः विधीयते। तद् अष्टमाध्यायस्य पूर्वत्र सिद्धम् इति अस्माभिः तद् उक्तं किल, अष्टमाध्यायस्य द्वितीयपादः नाम पूर्वत्र सिद्धम्। एवं तत् सूत्रम् अदे इति कृतम् इति एषः सूत्रः न अवजानाति, अतः एदन्तः अस्ति अदे इति एदन्तः अस्ति, द्विवचनं नास्ति, अतः बहुवचने अस्ति इति कृत्वा अत्र किं भवति, अदसोमात् इति सूत्रस्य प्रवृत्तिः भवति। किञ्चित् प्रक्रियाविशेषः अस्ति, तद् यदा अदशब्दस्य विषये प्रक्रिया यदा वयम् अदशब्दस्य प्रक्रियां जानीमः तदा किञ्चित् विवरणं कर्तुं शक्यते, इदानीम् उच्यते चेदपि तद् कदाचित् न अवगम्यते। एवम् अत्र किं स्मर्तव्यम् इत्युक्ते अदशब्दस्य असौ अमु अमि इत्यत्र ऊकारः अस्ति ईकारः अस्ति, मकारात् परम् ईकारः ऊकारः अस्ति, तस्यापि प्रगृह्यसंज्ञा भवति। इदानीं प्रगृह्यसंज्ञायाः प्रयोजनं प्रकृतिभावः। एवं किम् अभवत् इत्युक्ते अमी ईशाः इति प्रयोगे ईकारात् परे ईकारे सति, तत्र अमी ईशाः इत्यत्र सवर्णदीर्घसन्धेः प्रसक्तिः अस्ति, परन्तु अकसवर्णे दीर्घः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तद् न प्रवर्तते। किमर्थमित्युक्ते अमी इत्यत्र ईकारस्य प्रगृह्यसंज्ञा अस्ति, श्रुतप्रगृह्य आचिनित्यम् इति सूत्रेण प्रकृतिभावात् सन्धिकार्यनिषेधः सम्भवति। एवम् अमी ईशाः इति प्रकृतिभावस्वरूपमेव साधु। एवमेव अमु आसाते इत्यपि अस्ति, अमु आसाते आसाते इति लिखितम्,
आसाते इति भवेत्। अमु आसाते इत्यत्रापि तत्र अमु इत्यस्य मकारोत्तर उकारस्य उकारस्य प्रदृश्य संज्ञा विद्यते अदसोमात् इति सूत्रेण। एवं प्रगृह्य संज्ञा विधानत्वात् ऊकार आकारयोः यण्सन्धिः न भवति। एवम् अमु आसाते इत्येव रूपं निष्पन्नं भवति। इदानीम् अग्रिमसूत्रं प्रति गच्छामः। चादयो सत्त्वे, इदानीं प्रकृतिभावप्रकरणे एव वयं स्मः। इदानीं निपाताः अपि प्रकृतिभावाः भवन्ति। तर्हि निपाताः के के इति सूत्रकारः तत्र लघुकौमुदीकारः वदति। चादयो असत्त्वे इति सूत्रार्थः। चादयः इत्युक्ते चादयः इति एकः गणः, असत्त्वे, असत्त्वं नाम सत्त्वं नाम द्रव्यम्, असत्त्वं नाम अद्रव्य, अद्रव्यार्थाः चादयः निपाताः स्युः। इदानीं चादयः नाम कश्चित् गणः। चादिगणे के के सन्ति? च अस्ति, एतादृशशब्दाः सन्ति। एते च इत्यादि शब्दाः द्रव्यसंज्ञकाः यदि भवन्ति, यदि द्रव्यार्थं सूचयन्ति, यदि कश्चित् द्रव्यम् इत्युक्ते टाक्स् अबौट् अ मेटर् आर् थिङ्ग्, तदा किं भवति? निपातसंज्ञा न भवति। अनेन सूत्रेण निपातसंज्ञा विधीयते। एतत् संज्ञासूत्रमस्ति। एवं चादिगण अद्रव्यार्थाः चादयः निपाताः भवन्ति। निपाताः तत्र अव्ययकोशः इति एकं पुस्तकम् अस्ति, तत्र निपातशब्दस्य नियमेन स्वार्थम् अन्येषां पातयिष्यन्ति इति निपाताः इति उक्तम्। नियमेन स्वार्थम् अन्येषां पातयिष्यन्ति इति निपाताः। निपातानां स्वयं स्व अर्थः न सम्भवति, परन्तु यदा शब्दान्तरयोगेन तस्य अर्थः आगच्छति, शब्दान्तरयोगेन शब्दान्तरस्यैव अर्थारोपणं भविष्यति इति तत्र अव्ययकोशे निपातशब्दस्य निष्पत्तिः उक्तः। इदानीं निपातसंज्ञकः अस्माभिः किमर्थं क्रियते इत्युक्ते, निपातसंज्ञकाः अपि प्रकृतिभावं स्वीकुर्वन्ति। प्रकृतिभावः यदा भवति तदा सन्धिः न भवति, निमित्ते सत्यपि सन्धिः न भवति। इदानीं चादयो असत्त्वे इति सूत्रेण अद्रव्यार्थाः चादयः निपाताः स्युः। इदानीं प्रश्नः उदेति, तत्र तर्हि द्रव्यार्थाः चादयः सन्ति वा इति प्रश्नः उदेति। तदा उच्यते पशु इति शब्दः तत्र चादिगणे अस्ति। पशुशब्दस्य सम्यक् इति अर्थः, न तु गवादिपशवः। यदि अद्रव्यवाची सम्यक् इति अर्थः अस्ति पशु इत्यस्य, तदा तस्य निपालसंज्ञा अस्ति। यदि द्रव्यवाची पशुः, पशुः नाम जन्तुः इति यदि स्वीक्रियते, तदा निपातसंज्ञकः न भवति। अतः पशुशब्दस्य कृते असत्त्वे इति वक्तव्यम् आपतितम्। अद्रव्यार्थाः चादयः निपाताः स्युः। पुनः वदामि, चादिः नाम चादयः नाम कश्चन गणः। गणे बहवः शब्दाः सन्ति, च शब्दोऽपि अस्ति, पशुशब्दः अस्ति, एतादृशशब्दाः सन्ति। एतादृशशब्दाः यदि अद्रव्यार्थं सूचयन्ति तदा तेषां निपातसंज्ञा, निपात इति तस्य नामकरणं क्रियते, निपातसंज्ञा विधीयते। इदानीम् एतेषां चादिगणे विद्यमानानां शब्दानां किं द्रव्यार्थम् अस्ति वा इति प्रश्नः क्रियते। तदा उच्यते, पशु इति शब्दः चादिगणे अस्ति, पशु इत्यस्य अर्थद्वयं विद्यते। एकः प्रसिद्धपशुः इत्युक्ते जन्तुः, जन्तुविशेषः, गवादि पशवः सन्ति ते। एकस्य पशुशब्दस्य एकः अर्थः सः भवति। अन्यः अर्थः पशुशब्दस्य पशु इत्यस्य सम्यक् इति अस्ति। सम्यक् इत्यत्र द्रव्यार्थः नास्ति इत्युक्ते इट इज नॉट डिनोटिंग ए मैटर और ए थिंग द्रव्यार्थम नास्ति अतः अद्रव्यार्थत्वात् पशु इति सम्यक् इति अर्थस्य निपातसंज्ञा अस्ति इदानीं पशुं नयन्ति सम्यक् पशुं नयन्ति नाम सम्यक् रीत्या नयन्ति इत्यर्थः चादयो सत्वे इति निपातसंज्ञा विधीयते अद्रव्यार्थाः चादयः निपाताः स्युः इदानीं चादि इति यः गणः अस्ति तत्र पशुः षट् इत्यादि शब्दानां ग्रहणं भवति द्रव्यम् इति पदार्थस्य पर्यायः अस्ति यत्र द्रव्यम् इत्यस्य डेफिनिशन् किं लिङ्गसङ्ख्यान्वितं द्रव्यं लिङ्ग तस्य लिङ्गम् अस्ति चेत् संख्या अस्ति चेत् सः द्रव्यं भवति इदानीं पशु इत्यस्य पुल्लिङ्गः एकवचनम् इति उच्यते चेत् पुल्लिङ्गः एकवचनं नाम तत्र लिङ्गसङ्ख्यान्वितं द्रव्यं भवति अतः यदि द्रव्यः द्रव्यमर्थः न स्यात् तदा चादिगणे पठिताः शब्दाः निपातसंज्ञाः भवन्ति लोधं नयन्ति पशुं मन्यमानाः इत्यत्र पशुशब्दस्य अर्थः सम्यक् इति अस्ति तदा अद्रव्यार्थत्वात् अद्रव्यवाचित्वात् अयं शब्दः निपातसंज्ञः भवति किन्तु यदि पशु इति शब्दस्य प्राणी इति स्यात् तर्हि द्रव्यवाचित्वात् सः निपातसंज्ञकः न स्यात् यथा पशुं नयन्ति पशुं हन्ति इत्यादि वाक्येषु सम्यक् अवगतं वा अस्तु अद्यतनकक्षायाः उपसंहारं कुर्मः अग्रिमकक्षायां तत्र निपातसंज्ञकाः अन्य निपातसंज्ञाविधायकानि सूत्राणि सन्ति प्रायः कक्षात्रये सार्वसत्य निपात एकादना इतोपि कक्षाद्वयं वा कक्षात्रयं वा अत्सन्धिसमापनार्थम् अस्तु येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदी सुजाता भगिनी धन्यवादाः भवती तत्र पूर्वमेव लागिन् कृतवती ततः कारणात् सर्वे तत्र पारायणं कृतवन्तः धन्यवादाः हरि ओं राम 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 शुभरात्रि सर्वेषाम्